द्वादशोध्याय देवी चरित्रों के पाठ का महात्म्य ध्यानम्। ओम विद्युत्याम सम प्रभांग मृगपति स्कंद स्थितांग भीषणांग कन्या भी करवाल खेत विल सद्धस्ता विरासे विताम अस्त शक्र गदा सिखेत विशिखा शापं गुणंतर जनी विव्राणा मन लात्मिकाम शशिधरांग दुर्गांग त्रिनेत्रांग भजे। ओम देव्योवाच एभिः अस्तवैश्यमां नित्यं स्तोषते यः समाहितः तस्याहं सकलांग बाधांग नाशयिष्याम्य संशयम् मधुकैटभनाशं च महिषासुरघातनं कीर्तयिष्यन्ति ये तद्वद् वधं शुम्भनिशुम्भयोः अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः शोषन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् न तेषां दुष्कृतं किञ्चित् दुष्कृतोत्थान चापदः भविष्यति न दारिद्र्यं न चैवेष्टवियोजनं शत्रुतो न भयं तस्य दस्युतो वा न राजतः न शस्त्रानलतो योगात् कदाचित् सम्भविष्यति तस्मान् ममैतन्माहात्म्यं पठितव्यं समाहितैः श्रोतव्यं च सदा भक्त्या परं स्वस्तैनं हि तत् उपसर्गानशेषांस्तु महामारी समुद्भवान् तथा त्रिविधम् उत्पातं माहात्म्यं शमयेन्मम यत्रैत्यपच्यते सम्यक् नित्यमायतने मम सदा न तद्विमुक्षामि सान्निध्यं तत्र मे स्थितं बलिप्रदाने पूजायाम अग्निकार्ये महोत्सवे सर्वं ममैतच्चरितम् उच्चार्यं श्राव्यमेव च जानता जानता वापि बलिपूजां तथा कृतां प्रतिच्छिष्याम्यहं प्रीत्या वह्नि होमं तथा कृतं शरत्काले महापूजा क्रियते या च वार्षिकी तस्यां ममैतन्महात्म्यं श्रुत्वा भक्तिसमन्वितः सर्वा बाधा विनुर्मुक्तो धनधान्यसुतान्वितः मनुष्यो मत्प्रसादेन भविष्यति न संशयः श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः पराक्रमं च युद्धेषु जायते निर्भयः पुमान् ऋपवः संशयं यान्ति कल्याणं चोपपद्यते नन्दते च कुलं पुंसां महात्म्यं मम शृण्वताम् शान्तिकर्मणि सर्वत्र तथा दुःस्वप्नदर्शने ग्रहपीडासु चोग्रासु महात्म्यं शृणुयान्मम उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः दुःस्वप्नं च निर्भिर्दृष्टं सुस्वप्नम् उपजायते बालग्रहाविभूतानां बालानां शान्तिकारकं सङ्घातभेदे च नृणां मैत्रीकरणम् उत्तमम् दुर्वृत्तानां शेषानां बलहानिकरं परं रक्षोभूतपिशाचानां पठनादेवनाशनम् सर्वं ममैतन्महात्म्यं मम सन्निधिकारकं पशुपुष्पार्घधूपैश्च गन्धदीपैस्तथोत्तमैः विप्राणाङ्गभोजनैरहोमैः प्रोक्षणीयैरहर्निशम् अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या प्रीतिर्मे क्रियते सास्मिन् सकृत्सुचरिते श्रुते श्रुतं हरति पापानि तथा आरोग्यं प्रयच्छति रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम युद्धेषु चरितं यन्मे दुष्टदैत्यनिवरहणम् तस्मिन् श्रुते वैरकृतं भयं पुंसां न जायते युष्माभिः हस्ततयो यास्य यास्य ब्रह्मर्षिभिः कृताः ब्रह्मणा च कृतास्तास्तु प्रयच्छन्ति शुभां मतिम् अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः दस्युभिर्वावृतः शून्ये गृहीतो वापि शत्रुभिः सिंहव्याघ्रानुयातो वा वने वावनहस्तिभिः राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोऽपि वा आघूणितो वा तेन स्थितः पोते महाणवे पतत्सु चापि शस्त्रेषु सङ्ग्रामे वृषदारुणे सर्वा बाधासु घोरासु वेदनाभर्दितोऽपि वा स्मरन्ममैतच्चरितं नरो मुच्येत सङ्कटात् मम प्रभावा सिंहाद्या दस्यवो वैरिणस्तथा दूरादेव पलायन्ते अस्मर्तश्चरितं मम ऋषिरुवाच इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा पश्यतामेव देवानां तत्रैवान्तर्धीयत तेऽपि देवा निरातङ्का स्वाधिकारान् यथा पुरा यज्ञभागभुजः सर्वे चक्रुर्विनिहतारयः दित्याश्च दिव्या निहते शुम्भे देवरिपौ युधि जगद्विधंसिनी तस्मिन्महोग्रे तुलविक्रमे निशुम्भे च महावीर्ये शेषाः पातालमाययुः एवं भगवती देवी सा नित्यापि पुनः पुनः सम्भूय कुरुते भूप जगतः परिपालनं तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति व्याप्तं तैतत् सकलं ब्रह्माण्डं मनुजेश्वर महाकाल्या महाकाले महामारी स्वरूपया सैव काले महामारी सैव सृष्टिर्भवत्यजा स्थितिं करोति भूतानां सैव काले सनातनि भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे सैवाभावे तथा लक्ष्मीर्विनाशायोपजायते स्तुता सम्पूजिता पुष्पैर्धूपगन्धादिभिस्तथा ददाति वित्तं पुत्रांश मतिं धर्मे गतिं शुभाम् ॐ इति श्रीमार्कण्डेय पुराणे सावर्णिके मन्वन्तरे देवी महात्मये फलस्तुतिर्नाम द्वादशोऽध्यायः।